వెంకటేశ్వర సహస్రనామ స్తోత్రం రెండైడ్ బై శ్రీమతి ఆర్ ఛాయాదేవి.
శుక్లాం వరధరం విష్ణుం శశివర్ణం చతుర్భుజం ప్రసన్న వదనం ధ్యాయేత్ సర్వ విఘ్నోపశాంతయే. శ్రీ బ్రహ్మాండ పురాణాంతర్గత శ్రీ వెంకటేశ్వర సహస్రనామ స్తోత్రం. వశిష్ఠ ఉవాచ భగవన్ కైశ్చ విధినా నామభిర్వెంకటేశ్వరం పూజయామాసతం దేవం బ్రహ్మాతు కమలైః శుభైః. పృచ్ఛామి తాని నామాని గుణయోగపరాణి కిం ముఖ్యవృత్తీని కిం బ్రూహి లక్ష్యకాణ్యధవాహరేః. నారద ఉవాచ నామాన్యనంతాని హరే గుణయోగాని కానిచిత్ ముఖ్యవృత్తీని చాన్యాని లక్ష్యకాణ్యపరాణి చ. పరమార్థైః సర్వశబ్దైరేకో జ్ఞేయః పరః పుమాన్ ఆదిమధ్యాంతరహితః అవ్యక్తోనంతరూపభృత్ చంద్రార్కవహ్ని వాయువాది గ్రహక్షాణి నభోదిశః. అన్వయవ్యతిరేకాభ్యాం సంతి నో సంతి యన్మతే. తస్య దేవస్య నామ్నాం హి పారం గంతుం హి కక్షమః. తథాపి చాభిధానాని వెంకటేశస్య కానిచిత్. బ్రహ్మగీతాని పుణ్యాని తాని వక్ష్యామి సువ్రత. యదుచ్చారణ మాత్రేణ విముక్తాగః పరం వ్రజేత్. వెంకటేశస్య నామ్నాం హి సహస్రస్య ఋషిర్విధిః. ఛందోనుష్టుప్ తథా దేవ శ్రీవత్సాంకోరమాపతిః. బీజభూతస్తదోంకారో హ్రీం క్లీం శక్తిశ్చ కీలకం. ఓం నమో వెంకటేశాయేత్యాదిర్మంత్రోత్ర కథ్యతే. బ్రహ్మాండ గర్భకవచం అస్త్రం చక్రగదాధరః. వినియోగో భీష్టసిద్ధో హృదయం సామగాయనః. భాస్వచ్చంద్రమసౌ యదీయనయనే భార్యా యదీయారమా. యస్మాద్ విశ్వసృడప్యభూత్యమికులం యధ్యానయుక్తం సదా నాథో యో సృజతాం. నగేంద్రదుర్నాథోపి యద్భక్తిమాన్ తాతో యో మదనస్య యో దురితహాతం వెంకటేశం భజే. ఊర్ధ్వౌ హస్తౌ యదీయౌ సురరిపుదలని బిభ్రతౌ శంఖచక్రే. సేవ్యావంఘ్రీ స్వకీయావభిదదధరో దక్షిణో యస్య పాణిః. తావన్మాత్రం భవాబ్ధిం గమయతి భజతామూరుగో వామపాణిః. శ్రీవత్సాంకశ్చ లక్ష్మీర్యదురసి లసతస్థం భజే వెంకటేశం. ఇతి ధ్యాయన్ వెంకటేశం శ్రీవత్సాంకం రమాపతిం. వెంకటేశో విరూపాక్ష ఇత్యారభ్య జపేత్రమాత్. ఓం శ్రీ వెంకటేశాయ నమః. వెంకటేశో విరూపాక్షో విశ్వేశో విశ్వభావనః. విశ్వసృత్ విశ్వసంహర్తా విశ్వప్రాణో విరాట్వపుః. శేషాద్రినిలయో శేష భక్తదుఃఖప్రణాశనః. శేషస్తుత్యః శేషశాయి విశేషజ్ఞో విభుస్వభూః. విష్ణుర్విష్ణుశ్చ వర్ధిష్ణు సహిష్ణుస్సహిష్ణుకః. భ్రాజిష్ణుశ్చ గ్రసిష్ణుశ్చ వర్ధిష్ణుశ్చ భరిష్ణుకః. కాలయంతా కాలగోప్తా కాలః కాలాంతకోఖిలః. కాలగమ్యః కాలకంఠ వంద్యః కాలకలీశ్వరః. శంభుస్వయంభూరంభోజ నాభిస్తంభితవారిధిః. అంబోధినందినీ జాని శోణాంభోజపదప్రభః. కంభుగ్రీవశంబరారి రూపశంబరజేక్షణః. బింబాధరో బింబరూపీ ಪ್ರತಿಬಿಂಬಕ್ರಿಯಾತಿಗಃ ಗುಣವಾನ್ ಗುಣಗಮ್ಯಶ್ಚ ಗುಣಾತೀತೋ ಗುಣಪ್ರಿಯಃ ದುರ್ಗುಣಧ್ವಂಸಕೃತ್ ಸರ್ವ ಸುಗುಣೋ ಗುಣಭಾಸಕಃ ಪರೇಸ ಪರಮಾತ್ಮಾ ಚ ಪರಂ ಜ್ಯೋತಿ ಪರಾಗತಿಃ ಪರಂ ಪದಂ ವಿಯತ್ವಾಸಾಃ ಪಾರಂಪರ್ಯ ಶುಭಪ್ರದಃ ಬ್ರಹ್ಮಾಂಡ ಗರ್ಭೋ ಬ್ರಾಹ್ಮಣ್ಯೋ ಬ್ರಹ್ಮಸೃಟ್ ಬ್ರಹ್ಮಬೋಧಿತಃ ಬ್ರಹ್ಮಸ್ತುತ್ಯೋ ಬ್ರಹ್ಮವಾದಿ ಬ್ರಹ್ಮಚರ್ಯ ಪರಾಯಣಃ ಸತ್ಯವ್ರತಾರ್ಥ ಸಂತುಷ್ಟ ಸತ್ಯರೂಪೀ ಶಶಾಂಗವಾನ್ ಸೋಮಕ ಪ್ರಾಣಹಾರೀ ಚ ನೀತಾಂ ನಾಯೋಕ್ತಿ ವಂದಿತಃ ದೇವಾಸುರವರಸ್ತುತ್ಯಃ ಪತನ್ಮಂದರಧಾರಕಃ ಧನ್ವಂತರಿ ಕಚ್ಚಪಾಂಗಃ ಪಯೋನಿಧಿ ವಿಮಂಥಕಃ ಅಮರಾಮೃತ ಸಂಧಾತಾ ಧೃತಸ್ಸಂಮೋಹಿನೀ ವಪುಃ ಹರಮೋಹಕ ಮಾಯಾದಿ ರಕ್ಷಸ್ಸಂದೋಹ ಭಂಜನಃ ಹಿರಣ್ಯಾಕ್ಷ ವಿದಾರೀ ಚ ಯಜ್ಞೋ ಯಜ್ಞ ವಿಭಾವನಃ ಯಜ್ಞೀಯೋರ್ವೀ ಸಮುದ್ಧರ್ತಾ ಲೀಲಾಘೋಡಃ ಪ್ರತಾಪವಾನ್ ದಂಡಕಾಸುರ ವಿಧ್ವಂಸಿ ವಕ್ರದಂಶ ಕ್ಷಮಾಧರಃ ಗಂಧರ್ವಸ್ಯಾಪಹರಣಃ ಪುಣ್ಯಗಂಧೋ ವಿಚಕ್ಷಣಃ ಕರಾಳವಕ್ರ ಸೋಮಾರ್ಕ ನೇತ್ರ ಷಡ್ಗುಣವೈಭವಃ ಶ್ವೇತಘೋಣೀ ಘೋರ್ಘಿತಭ್ರೂಃ ಘುರ್ಘುರಧ್ವನಿ ವಿಭ್ರಮಃ ಘ್ರಾಘೀಯಾನ್ನೀಲಕೇಶೀ ಚ ಜಾಗ್ರದಂಬುಜಲೋಚನಃ ಘೃಣಾವಾನ್ ಘೃಣಿ ಸಂಮೋಹೋ ಮಹಾಕಾಲಾಗ್ನಿದೀಧಿತಿಃ ಜ್ವಾಲಾಕರಾಳವದನೋ ಮಹೋಲ್ಕಾಕುಲವೀಕ್ಷಿಣಃ ಸಟಾ ನಿರ್ಭಿನ್ನ ಮೇಘೋಭೋ ದಂಷ್ಟ್ರಾರುಭ್ಯಾಪ್ತದಿಕ್ತಟಃ ಉಚ್ಛ್ವಾಸಾಕೃಷ್ಟಭೂತೇಶೋ ನಿಶ್ವಾಸತ್ಯಕ್ತವಿಸ್ವಸೃಜ್ ಅಂತರ್ಭ್ರಮಜ್ಜಗದ್ಗರ್ಭೋ ನಂತೋ ಬ್ರಹ್ಮಕಪಾಲಹೃತ್ ಉಗ್ರೋ ವೀರೋ ಮಹಾವಿಷ್ಣುರ್ಜ್ವಲನಃ ಸರ್ವತೋಮುಖಃ ನೃಸಿಂಹೋ ಭೀಷಣೋ ಭದ್ರೋ ಮೃತ್ಯುಂ ಮೃತ್ಯುಃ ಸನಾತನಃ ಸಭಾಸ್ತಂಭೋದ್ಭವೋ ಭೀಮ ಶಿರೋಮಾಲೀ ಮಹೇಶ್ವರಃ ದ್ವಾದಶಾದಿತ್ಯಚೂಡಾಲಃ ಕಲ್ಪಧೂಮಾ ಸಟಾಚ್ಛವಿಃ ಹಿರಣ್ಯಕೋರಸ್ಥಲಭಿರ್ ನಖಸಿಂಹಮುಖೋ ನಖಃ ಪ್ರಹ್ಲಾದವರದೋ ಧೀಮಾನ್ ಭಕ್ತಸಂಘ ಪ್ರತಿಷ್ಠಿತಃ ಬ್ರಹ್ಮರುದ್ರಾದಿ ಸಂಸೇವ್ಯ ಸಿದ್ಧಸಾಧ್ಯ ಪ್ರಪೂಜಿತಃ ಲಕ್ಷ್ಮೀನೃಸಿಂಹೋ ದೇವೇಶೋ ಜ್ವಾಲಾಜಿಹ್ವಾಂತ್ರಮಾಲಿಕಃ ಖಡ್ಗೀ ಖೇಟೀ ಮಹೇಶ್ವಾಸಿ ಕಪಾಲೀ ಮುಸಲೀಹಲೀ ಪಾಶೀ ಶೂಲೀ ಮಹಾಬಾಹೋ ಜ್ವರಘ್ನೋ ರೋಗಲುಂಟಕಃ ಮೌಂಜೀ ಯುಕ್ಛಾತ್ರಕೋದಂಡೀ ಕೃಷ್ಣಾಜಿನಧರೋ ವಟುಃ ಅಧೀತ ವೇದೋ ವೇದಾಂತೋ ಧಾರಕೋ ಬ್ರಹ್ಮನೈಷ್ಠಿಕಃ ಅಹೀನಸೇನ ಪ್ರೀತಃ ಆದಿತೇಯೋ ನಭೋ ಹರಿಃ ಸಂವಿತ್ ಪ್ರಯಾಸ್ತಾಮವೇದ್ಯೋ ಬಲಿವೇಶ್ಮ ಪ್ರತಿಷ್ಠಿತಃ ಬಲಿಕ್ಷಾಳಿತ ಪಾದಾಬ್ಜೋ ವಿಂಧ್ಯಾವಳಿ ವಿಮಾನಿತಃ ತ್ರಿಪಾದ ಭೂಮಿ ಸ್ವೀಕರ್ತ ವಿಶ್ವರೂಪ ಪ್ರದರ್ಶಕಃ ಧೃತ ತ್ರಿವಿಕ್ರಮ ಸ್ವಾಂಘ್ರಿ ನಖ ಭಿನ್ನಾಂಡಕರ್ಪರಃ ಪಜ್ಜಾತ ವಾಹಿನೀ ಧಾರ ಪವಿತ್ರಿತ ಜಗತ್ರಯಃ ವಿಧಿ ಸಮ್ಮಾನಿತ ಪುಣ್ಯೋ ದೈತ್ಯಯೋದ್ಧಾಜಯೋರ್ಜಿತಃ ಸುರರಾಜ್ಯ ಪದ ಶುಕ್ರ ಮದಹೃತ್ ಸುಗತೀಶ್ವರಃ ಜಾಮದಗ್ನ ಕುಠಾರೀ ಚ ಕಾರ್ತವೀರ್ಯ ವಿದಾರಣಃ ರೇಣುಕಾಯಾ ಶಿರೋಹಾರೀ ದುಷ್ಟಕ್ಷತ್ರಿಯ ಮರ್ದನಃ ವರ್ಚಸ್ವೀದಾನಶೀಲಶ್ಚ ಧನುಷ್ಮಾನ್ ಬ್ರಹ್ಮವಿತ್ತಮಃ ಅತ್ಯುದಗ್ರಃ ಸಮಗ್ರಶ್ಚ ನ್ಯಗ್ರೋಧೋ ದುಷ್ಟ ನಿಗ್ರಹಃ ರವಿವಂಶ ಸಮುದ್ಭೂತೋ ರಾಘವೋ ಭರತಾಗ್ರಜಃ ಕೌಸಲ್ಯಾತನಯೋ ರಾಮೋ विश्वामित्र प्रियंकरः ताटकारि सुबाहुघ्नो बलादि बलमंत्रवान् अहल्या शाप विच्छेदी प्रविष्ट जनकालयः स्वयंवर सभा संस्था ईश चाप प्रभंजनः जानकी परिणेता च जनकाधीश संस्तुतः जमदग्नि तनुजात योद्धा योद्धादिपाक्रणीः पितृवाक्य प्रतिपाल त्यक्त राज्यस्य लक्षणः ससीतश्चित्रकूटस्थो भरताहितराज्यकः काकदर्प प्रहर्ता च दण्डकारण्यवासकः पञ्चवट्यां विहारी च स्वधर्म परिपोषकः विराधहागस्त्य मुख्य मुनिसम्मानितः पुमान् इन्द्रचापधरः खड्ग धरश्चाक्षयसायकः हरान्तको दूषणारि त्रिशिरस्करिपुर्वृषः ततः शूर्पणखानासात् छेत्तावल्कलधारकः जटावन्पर्णशालास्थो मारीचबलमर्दकः पक्षिराकृतसंवादो रवितेजा महाबलः शबर्यानीतफलभुक् भुनो मत्परिघोषितः सुग्रीवाभयदो दैत्य कायक्षेपणभासुरः सप्तसारसमुच्छेत्त वालिहृत्कपि संवृतः वायुसूनुकृता सेवः त्यक्तपम्पः कुशासनः उदन्वत्तीरगशूरो विभीषणवरप्रदः सेतकृत्तैत्यः प्राप्त लङ्कोलङ्कारवान् स्वयम् अतिकायशिरश्छेत्ता कुम्भकर्णविभेदनः दशकण्ठशिरोध्वंसि जाम्बवत्प्रमुखावृतः जानकीश सुराध्यक्षः साकेतेशः पुरातनः पुण्यश्लोको वेदवेद्यः स्वामितीर्थनिवासकः लक्ष्मीसरः केळिलोलो लक्ष्मीशो लोकरक्षकः देवकी गर्भसम्भूतो यशोदेक्षणलालितः वसुदेवकृतस्तोत्रो नन्दगोपमनोहरः चतुर्भुजः कोमलाङ्गो गदावान् नीलकुन्तलः पूतना प्राणसंहर्ता तृणावर्तविनाशनः गर्गारोपितनामाङ्को वासुदेवो ह्यधोक्षजः गोपिकास्तन्यपायी च बलभद्रानुजाच्युतः वयाघ्रनखभूषश्च वत्सजिद्वत्सवर्धनः क्षीरसारासनरतो दधिभाण्डप्रमर्दनः नवनीतापहर्ता च नीलनीरदभासुरः अभीरदृष्टदौर्जन्यो नीलपद्मनिभाननः मातृदर्शितविश्वासः उलूखलनिबन्धनः नलकोपरशापान्तो गोधूलिच्छुरिताङ्गकः गोसङ्घरक्षकश्रीशो वृन्दारण्यनिवासकः वत्सान्तकोपकद्वेषी दैत्याम्बुदमहानिलः महाजगरचण्डाग्नि शकटप्राणकण्टकः चन्द्रसेव्यः पुण्यगात्रः खरजिच्चण्डदीधितिः ताडपक्वफलासी च काळीयफणिदर्पः नागपत्नीस्तुतिप्रीतः प्रलम्बासुरखण्डनः दावाग्निबलसंहारी फलाहारी गदाग्रजः गोपाङ्गना चेलचोरः पाथो लीलाविशारदः वंशगानप्रवीणश्च गोपीहस्ताम्बुजार्चितः मुनिपत्न्या हृताहारो मुनिश्रेष्ठो मुनिप्रियः गोवर्धनात्रिसन्धर्ता सङ्क्रन्दनतमोपहः सदुद्यानविलासी च रासक्रीडापरायणः वरुणाभ्यर्चितो गोपी प्रार्थितः पुरुषोत्तमः अक्रूरस्तुतिसम्प्रीतः कुब्जा यौवनदायकः ముష్టికోర ప్రహారీ చ చాణూరోదర దారణః మల్లయుద్ధాగ్రగణ్యశ్చ పితృబంధన మోచకః మత్తమాతంగ పంచాస్యః కంసగ్రీవాని కృంతనః ఉగ్రసేన ప్రతిష్ఠాతా రత్నసింహాసన స్థితః శాలనేమిఖిలద్వేషీ ముచికుందవరప్రదః సాల్వసేవిత దుర్ధర్ష రాజస్మయ నివారణః రుక్మి గర్వాపహారీ చ రుక్మిణీ నయనోత్సవః ప్రద్యుమ్న జనకః కామో ప్రద్యుమ్నో ద్వారకాధిపః మణ్యా హర్తా మహామాయో జాంబవత్కృత సంగరః జాంబూనదదాంబరధరో గమ్యో జాంబవతీ విభుః కాళిందీ ప్రథితా రామ కేళీర్గుంజావతంసకః మందారసుమనోభాస్వాన్ శచీశాభీష్టదాయకః సత్రాజిన్మానసోల్లాసీ సత్యాజాన్నిశుభావహః శతధన్వహరసిద్ధః పాండవప్రియకోత్సవః భద్రప్రియసుభద్రాయ భ్రాతా నాగ్నజితీ విభుః కిరీటకుండలధరః కల్పపల్లవలాలితః భైష్మీ ప్రణయభాషావాన్ మిత్రవిందాధిపోభయః స్వమూర్తికేళి సంప్రీతో లక్ష్మణోదారమానసః ప్రాజ్యోతిషాధిపత్వంసి తత్సైన్యాంతకరోమృతః భూమిసుతో భూరి భోగో భూషణాంబరసంయుతః బహురామాకృతాహ్లాదో గంధమాల్యానులేపనః నారదాదృష్టచరితో దేవేశో విశ్వరాద్గురుః బాణబాహువిదారాశ్చ తాపజ్వరవినాశనః ఉపోద్ధర్షయితావ్యక్త శివవాక్తుష్టమానసః మహేశజ్వరసంస్తుత్య శీతజ్వరభయాంతకః మృగరాజోద్ధారకశ్చ పౌండ్రకాదివధోధ్యతః వివిధారిచ్చలోద్విగ్న బ్రాహ్మణేషు దయాపరః జరాసంధబలద్వేషీ కేసి దైత్యభయంకరః చక్రీచైత్యాంతకః సభ్యో రాజబంధవిమోచకః రాజసూయః విర్భోక్తా స్నిగ్ధాంగశుభలక్షణః ధానాభాక్షణసంప్రీతః కుచేలోభీష్టదాయకః సత్వాదిగుణగంభీరో ద్రౌపదీ మానరక్షకః భీష్మధ్యేయో భక్తవశ్యో భీమపూజ్యోదయానిధిః దంతవక్త్రశిరశ్చేత్తా కృష్ణః కృష్ణాసఖస్వరాట్ వైజయంతీ ప్రమోదీ చ బర్హిబర్హవిభూషణః పార్థకౌరవసంధానకారీ దుశ్శాసనాంతకః బుద్ధో విశుద్ధః సర్వజ్ఞః క్రతుహింసావినిందకః త్రిపురస్త్రీమానభంగః సర్వశాస్త్రవిశారదః నిర్వికారో నిర్మమశ్చ నిరాభాసో నిరామయః జగన్మోహకధర్మీ చ దిగ్వస్త్రో దిక్పతీశ్వరః కల్కీ మ్లేచ్ఛప్రహర్తా చ దుష్టనిగ్రహకారకః ధర్మప్రతిష్ఠాకారీ చ చాతుర్వర్ణ్యవిభాగకృత్ యుగాంతకో యుగాక్రాంతో యుగకృత్యుగభాసకః కామారిః కామకారీ చ నిష్కామః కామితార్థతః భర్గో వరేణ్యం సవితుః శాంగీ వైకుంఠమందిరః హయగ్రీవః కైటభారీ గ్రాహ్నఘ్నో గజరక్షకః సర్వసంశయవిచ్ఛేత్తా సర్వభక్తసముత్సుకః కపర్దీ కామహారీ చ కళాకాష్ఠా స్మృతిర్భృతిః అనాదిరప్రమేయౌజాః ప్రధానః సన్నిరూపకః నిర్లేపో నిస్పృహో సంగో నిర్భయో నీతిపారగః నిష్ప్రేష్యో నిష్క్రియశాంతో నిష్ప్రపంచో నిధిర్ణయః कर्म्य कर्म विकारी च कर्मेप्सु कर्म भावनः कर्मांग कर्म विन्यासो महाकर्मी महाव्रती कर्म भुक् कर्म फलदः कर्मेश कर्म निग्रहः नरो नारायणो दान्तः कपिलः कामदशुचिः तप्ता जप्ता क्षमालावान् गन्ता नेतालयो गतिः शिष्टो द्रष्टारि पुत्रेष्टा रोष्टा वेष्टा महानटः रोद्धा बोद्धा महायोद्धा श्रद्धावान् सत्यधीशुभः मन्त्री मन्त्रो मन्त्रगम्यो मन्त्रकृत् परमन्त्रहृत् मन्त्रभृन्मन्त्रफलदो मन्त्रेशो मन्त्रविग्रहः मन्त्राङ्गो मन्त्रविन्यासो महामन्त्रो महाक्रमः स्थिरधिस्थिरविज्ञानः स्थिरप्रज्ञस्थिरासनः स्थिरयोगस्थिराधारः स्थिरमार्गस्थिरागमः निःश्रेयसो निरीहोऽग्नि निरवध्यो निरञ्जनः निर्वैरो निरहङ्कारो निर्दम्भो निरसूयकः अनन्तोऽनन्तबाहोरुरनन्तान्धिरनन्तदृक् अनन्तवक्त्रोऽनन्ताङ्गोऽनन्तरूपो ह्यनन्तकृत् ऊर्ध्वरेता ऊर्ध्वलिङ्गो ह्यूर्ध्वमूर्ध्वोर्ध्वशाखकः ऊर्ध्वमूर्ध्वाध्वरक्षी च ह्यूर्ध्वज्वालो निराकुलः बीजं बीजप्रदो नित्यो निदानं निष्कृतिकृति महागणीयान् गरिमा सुषमाचित्रमालिकः संस्कृन्नभसो ज्योतिर्नभस्वान्निर्नभानभः अभुर्विभुः प्रभुशम्भुर्महीयान् भूर्भुवाकृतिः महानन्दो महाशूरो महाराशिर्महोत्सवः महाक्रोधो महाज्वालो महाशान्तो महागुणः सत्यव्रतः सत्यपरः सत्यसन्धः सताङ्गतिः सत्येश सत्यसङ्कल्पः सत्यचारित्र्यलक्षणः अन्तश्चरो ह्यन्तरात्मा परमात्मा चिदात्मकः रोचनो रोचमानश्च साक्षी शौरिर्जनार्दनः मुकुन्दो नन्दनिष्पन्दः स्वर्णबिन्दुः पुरन्दरः अरिन्दमः सुमन्दश्च कुन्दमन्दारहासवान् सन्ध्यनारूढचण्डाङ्गो ह्यानन्दी नन्दनन्दनः अनसूयानन्दनोत्री नेत्रानन्दस्सुनन्दवान् शङ्खवान् पङ्कजकरः कुङ्कुमाङ्कोजयाङ्कुशः अम्भोजमकरन्दाढ्यो निष्पङ्को गरुपङ्किलः इन्द्रश्चन्द्ररथश्चन्द्रोतिचन्द्रश्चन्द्रभासकः उपेन्द्र इन्द्रराजश्च वागीन्द्रश्चन्द्रलोचनः प्रत्यक्पराक् परं धाम परमार्थः परात्परः अपारवाक्पारगामी पारावारः परावरः सहस्वानर्थदाता च सहनः साहसी जयी तेजस्वी वायुविसिखी तपस्वी तापसोत्तमः ऐश्वर्योद्भूतिकृद्भूतिरैश्वर्याङ्गकलापवान् अम्बोधिशायी भगवन् सर्वज्ञः सामपारगः महायोगी महाधीरो महाभोगी महाप्रभुः महावीरो महातुष्टिर्महापुष्टिर्महागुणः महादेवो महाबाहुर्महाधर्मो महेश्वरः समीपगो दूरगामी स्वर्गमार्गनिरर्गलः नगो नगधरो नागो नागेशो नागपालकः हिरण्मयस्वर्णरेता हिरण्यार्चिर्हिरण्यतः गुणगण्यस्य रण्यश्च पुण्यकीर्तिः पुराणगः जन्यभृज्जन्यसन्नद्धो दिव्यपञ्चायुधो वसी दौर्जन्यभङ्गः पर्जन्यः सौजन्यनिलयोलयः जलन्धरान्तको भस्मदैत्यनासी महामनाः श्रेष्ठस्रविष्ठो दाघिष्ठो गरिष्ठो गरुडध्वजः ज्येष्ठो दृढिष्ठो वरिष्ठो द्राघीयान् प्रणवः फणी सम्प्रदायकरस्वामी सुरेशो माधवो मधुः निर्निमेषो विधिर्मेधा बलवान् जीवनं बले स्मर्ता श्रोता विकर्ता च ध्याता नेता समो समः होता पोता महावक्ता रन्ता मन्ता खलान्तकः दाता ग्राहयिता माता नियन्तानन्त वैभवः गोप्ता गोपयिता हन्ता धर्मजागरिता धवः कर्ता क्षेत्रकरः क्षेत्रप्रदः क्षेत्रज्ञात्मवित् क्षेत्री क्षेत्रहरः क्षेत्रप्रियक्षेमकरो मरुत् भक्तिप्रदो मुक्तिदायी शक्तितो युक्तिदायकः शक्तियुङ्मौक्तिकः सद्वी सूक्तिराम्नाय सूक्तिगः धनञ्जयो धनाध्यक्षो धनिको धनदाधिपः महाधनो महामानी दुर्योधनविमानितः रत्नाकरो रत्नरोची रत्नगर्भाश्रयशुचिः रत्नसानुनिधिर्मौळी रत्नभारत्नकङ्कणः अन्तर्लक्ष्योऽन्तरभ्यासी चान्तध्येयोजितासनः अन्तरङ्गोदयावांश्च ह्यन्तर्मायो महार्णवः सरसस्तिद्धरसिकस्तिद्धः साध्यः सदा गतिः आयुःप्रदो महायुष्मानर्चिष्मानोषधीपतिः अष्टश्रीरष्टभागोऽष्टककुव्याप्तयसो व्रती अष्टापदः सुवर्णाभो ह्यष्टमूर्तिस्त्रिमूर्तिमान् अस्वप्नस्वप्नगस्वप्नः सुस्वप्नफलप्दायकः दुःस्वप्नध्वंसकोध्वस्त दुर्निमित्तः शिवङ्करः सुवर्णवर्णसम्भाव्यो वर्णितो वर्णः समुखः सुवर्णमुखरीतीरः शिवध्यातपदाम्बुजः दाक्षायणी वचस्तुष्टो दुर्वासोत्तुष्टिगोचरः अम्बरीषव्रतप्रीतो महाकृत्तिविभञ्जनः महाभिचारकध्वंसी कालसर्पभयान्तकः सुदर्शनः कालमेघस्यामः श्रीमन्त्रभावितः हेमाम्बुजसरस्नायी श्रीमनोभाविताकृतिः श्रीप्रदत्ताम्बुजस्वक्री श्रीकेळी श्रीनिधिर्भवः श्रीप्रदो वामनो लक्ष्मीनायकश्च चतुर्भुजः सन्तृप्तस्तर्पितस्तीर्थस्नातृसौख्यप्रदर्शकः अगस्त्यस्तुतिसंहृष्टो दर्शिताव्यक्तभावनः कपिलार्चित् कपिलवांसुस्नाताघविपातनः वृषाकपिकपिस्वामी मनोन्तस्थितनिग्रहः वह्निप्रियोऽर्थसम्भाव्यो जनलोकविधायकः वह्निप्रभो वह्नितेजाः शुभाभीष्टप्रदोयनी वारुणक्षेत्रनिलयो वरुणो वारणार्जितः वायुस्थानकृतावासो वायुगो वायुसंभृतः यमान्तकोऽभिजननो यमलोकनिवारणः यमिनामग्रगण्यश्च संयमीयमभावितः इन्द्रोद्यानसमीपस्थ इन्द्रदृक्विषयः प्रभुः यक्षरासरसीवासो यक्षय्यनिधिकोऽसकृत् स्वामितीर्थकृतावासः स्वामिध्येयो ह्यधोक्षजः वराहात्यष्टतीर्थाभिसेविताङ्घ्रिसरोरुह पाण्डुतीर्थाभिषिक्ताङ्गो युधिष्ठिरवरप्रदः भीमान्तः कर्णारूढ श्वेतवाहनसख्यवान् नकुलाभयदो मात्री सह देवाभिवन्दितः कृष्णाशपथसन्धाता कुन्तीस्तुतिरतोदमी नारदादिमुनिस्तुत्यो नित्यकर्मपरायणः दर्शिताव्यक्तरूपश्च वीणानादप्रमोदितः षट्कोटि तीर्थचर्यावान् देवतीर्थकृताश्रमः बिल्वामलजलस्नायि सरस्वत्यम्बुसेवितः तुम्बुरोदकसंस्पर्शः जनचित्ततमोपहः मत्स्यवामनकूर्मादि तीर्थराजः पुराणभृत् शक्रध्येयपदाम्भोजः शङ्खपूजितपादुकः रामतीर्थविहारी च बलभद्रप्रतिष्ठितः जामदग्यसरस्तीर्थ जलसेचनतर्पितः पापापहारिकीलाला सुस्नाताघविनाशनः नभो गङ्गाभिषिक्तश्च नागतीर्थाभिषेकवान् कुमारधारातीर्थस्थो वटुवेशः सुमेखलः वृद्धस्य सुकुमारत्व प्रतस्सौन्दर्यवान् सुखी प्रियं वदो महाकुक्षिरिक्ष्वाकुकुलनन्दन नीलगोक्षीरधाराभूर्वराहाचलनायकः भरद्वाज प्रतिष्ठावान् बृहस्पतिविभावितः अञ्जनाकृतपूजावान् आञ्जनेयकरार्चितः अञ्जनात्रिनिवासश्च मुञ्जिकेशः पुरन्दरः किन्नरत्वन्द्वसम्बन्धि बन्धमोक्षप्रदायकः वैखानसमखारम्भो वृषज्ञेयो वृषाचलः वृषकाय प्रभेत्ता च क्रीडनाचारसम्भ्रमः सौवच्चलेयविन्यस्त राज्यो नारायणप्रियः दुर्मेधो भञ्जकः प्राज्ञो रहोत्सवमहोत्सुकः भद्रासुरशिरश्छेत्ता भद्रक्षेत्रीषु भद्रवान् मृगयाणक्षीणसन्नाः शङ्खराजन्यतुष्टिदः स्थाणुस्थो वैनतेयाङ्ग भावितो ह्यशरीरवान् भोगीन्द्रभोगसंस्थानो ब्रह्मादिगणसेवितः सहस्रार्कच्छटाभास्व द्विमानान्तस्थितो गुणी विश्वक्सेन कृतस्तोत्र सनन्दनपरिवृतः जाह्नव्यादिनदीसेव्यः सुरेशात्यभिवन्दितः सुराङ्गनानृत्यपरो गन्धर्वोद्वायनप्रियः राकेन्दुसङ्काशनखः कोमलाङ्घ्रिसरोरुः कच्छपप्रपदः कुन्द गुल्फकस्वच्छकूर्परः मेदुरस्वर्णवस्त्राक्ष कटिदेशस्थमेखलः प्रोल्लसच्छुरिकाभास्वत्कटिदेशशुभङ्करः अनन्तपद्मजस्थान नाभिर्मौक्तिकमालिकः मन्दारचाम्पेयमाली रत्नाभरणसम्भृतः लम्बयज्ञोपवीती च चन्द्रश्रीखण्डलेपवान् वरदोभयदश्चक्री शङ्खी कौस्तुभदीप्तिमान् श्रीवत्साङ्कितवक्षस्को लक्ष्मी संसृतहृत्ततः नीलोत्पलनिभाकारः शौणाम्भोजसमाननः कोटिमन्मथलावण्यश्चन्द्रिकास्मितपूरितः सुधास्वच्छोर्ध्वपुण्ड्रश्च कस्तूरीतिलकाञ्चितः पुण्डरीकेक्षणस्वच्छो मौलिशोभाविराजितः पद्मस्थः पद्मनाभश्च सोममण्डलगोकुतः वह्निमण्डलगः सूर्य सूर्यमण्डलसंस्थितः श्रीपतिर्भूमिजानिश्च विमलाद्यभिसंवृतः जगत्कुटुम्बजनिता रक्षकः कामितप्रदः अवस्थात्रयन्ता च विश्वतेजस्वरूपवान् ज्ञप्तिर्ज्ञेयो ज्ञानगम्यो ज्ञानातीतः सुरागतिः ब्रह्माण्डान्तर्बहिर्व्याप्तो वेङ्कटाद्रिगदाधरः ब्रह्माण्डान्तर्बहिर्व्याप्तो वेङ्कटात्रिगदाधरः ब्रह्माण्डान्तर्बहिर्व्याप्तो वेङ्कटात्रिगदाधरः श्रीवेङ्कटेशसहस्रनामस्तोत्रं सम्पूर्णम्। श्रीवेङ्कटात्रिगदाधरोन्नम इति एवं श्रीवेङ्कटेशस्य कीर्तितं परमाद्भुतं नाम्नां सहस्रं संश्राव्यं पवित्रं पुण्यवर्धनं श्रवणात् सर्वदोषघ्नं रोगघ्नं मृत्युनाशनं दारिद्र्यभेदनं धर्म्यं सर्वैश्वर्यफलप्रदम् कालाहि विषविच्छेदि ज्वरापस्मारभञ्जनं शत्रुक्षयकरं राजग्रहपीडानिवारणं ब्रह्मराक्षसकूष्माण्डाभेतालभयभञ्जनं विद्याभिलाषी विद्यावान् धनार्थी धनवान् भवेत् अनन्तकल्पजीवी स्यादायुष्कामो महायशाः पुत्रार्थी सुगुणान् पुत्रान् लभेतायुष्मतस्ततः सङ्ग्रामे शत्रुविजयी सभायां प्रतिवादिजित् दिव्यैर्नामभिरेभिस्तु तुलसीपूजनात् सकृत् वैकुण्ठवासी भगवत्सदृशो विष्णुसन्निधौ कल्हारपूजनान्मासाद्वितीयैव यक्षराट् नीलोत्पलार्चनात् सर्वराजपूज्यस्तदा भवेत् हृत्संस्थितैर्नामभिस्तु भूयादृक्विषयो हरिः वाञ्छितार्थं तदा दत्त्वा वैकुण्ठं च प्रयच्छति त्रिसन्ध्यं योजपेन्नित्यं सम्पूज्य विधिना विभुं त्रिवारं पञ्चवारं वा प्रत्यहं क्रमशोयमी मासादलक्ष्मीना स स्यात् त्रिमासात् स्यान्नरेन्द्रता त्रिमासान्महदैश्वर्यं ततः सम्भाषणं भवेत् मासं पठन् यूनकर्मपूर्तिं च समवाप्नुयात् मार्गभ्रष्टश्च सन्मार्गं गतस्वस्वं स्वकीयकं चाञ्चल्यचित्तो चाञ्चल्यं मनस्वास्थ्यं च गच्छति आयुरारोग्यमैश्वर्यं ज्ञानं मोक्षं च विन्दति सर्वान् कामानवाप्नोति शाश्वतं च पदं तथा सत्यं सत्यं पुनः सत्यं 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 न संशयः सत्यं सत्यं पुनः सत्यं 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 न संशयः सत्यं सत्यं पुनः सत्यं सत्यं सत्त्वं न संशयः इति श्रीब्रह्माण्डपुराणे वसिष्ठनारदसंवादे वेङ्कटाचलमहत्ये वेङ्कटेशसहस्रनामस्तोत्राध्यायः समाप्तः। ॐ श्रीवेङ्कटेश्वराष्टोत्तरशतनामावलिः ॐ श्रीवेङ्कटेशाय नमः ॐ श्रीनिवासाय नमः ॐ लक्ष्मीपतये नमः ॐ अनामयाय नमः ॐ अमृतांशाय नमः ॐ जगद्वन्द्याय नमः ॐ गोविन्दाय नमः ॐ शाश्वताय नमः ॐ प्रभवे नमः ॐ शेषाद्रिनिलयाय नमः ॐ देवाय नमः ॐ केशवाय नमः ॐ मधुसूदनाय नमः ॐ अमृताय नमः ॐ माधवाय नमः ॐ कृष्णाय नमः ॐ श्रीहरये नमः ॐ ज्ञानपन्दराय नमः ॐ श्रीवत्सवक्षसे नमः ॐ सर्वेशाय नमः ॐ गोपालाय नमः ॐ पुरुषोत्तमाय नमः ॐ गोपीश्वराय नमः ॐ परञ्ज्योतिषे नमः ಓಂ ವೈಕುಂಠಪತಯೇ ನಮಃ, ಓಂ ಅಮ್ಯಯಾಯ ನಮಃ, ಓಂ ಸುಧಾತನವೇ ನಮಃ, ಓಂ ಯಾದವೇಂದ್ರಾಯ ನಮಃ, ಓಂ ನಿತ್ಯ ಯೌವನ ರೂಪವತೇ ನಮಃ, ಓಂ ಚತುರ್ವೇದಾತ್ಮಕಾಯ ನಮಃ, ಓಂ ವಿಷ್ಣುವೇ ನಮಃ, ಓಂ ಅಚ್ಯುತಾಯ ನಮಃ, ಓಂ ಪದ್ಮಿನೀ ಪ್ರಿಯಾಯ ನಮಃ, ಓಂ ಧರಾಪತಯೇ ನಮಃ, ಓಂ ಸುರಪತಯೇ ನಮಃ, ಓಂ ನಿರ್ಮಲಾಯ ನಮಃ, ಓಂ ದೇವಪೂಜಿತಾಯ ನಮಃ, ಓಂ ಚತುರ್ಭುಜಾಯ ನಮಃ, ಓಂ ಚಕ್ರಧರಾಯ ನಮಃ, ಓಂ ತ್ರಿಧಾಮ್ನೇ ನಮಃ, ಓಂ ತ್ರಿಗುಣಾತ್ರಯಾಯ ನಮಃ, ಓಂ ನಿರ್ವಿಕಲ್ಪಾಯ ನಮಃ, ಓಂ ನಿಷ್ಕಳಂಕಾಯ ನಮಃ, ಓಂ ನಿರಾತಂಕಾಯ ನಮಃ, ಓಂ ನಿರಂಜನಾಯ ನಮಃ, ಓಂ ನಿರಾಭಾಸಾಯ ನಮಃ, ಓಂ ನಿತ್ಯತೃಪ್ತಾಯ ನಮಃ, ಓಂ ನಿರುಪದ್ರವಾಯ ನಮಃ, ಓಂ ನಿರ್ಗುಣಾಯ ನಮಃ, ಓಂ ಗದಾಧರಾಯ ನಮಃ, ಓಂ ಸಾಂಗಪಾಣಯೇ ನಮಃ, ಓಂ ನಂದಕಿನೀ ನಮಃ, ಓಂ ಶಂಕರಧಾರಕಾಯ ನಮಃ, ಓಂ ಅನೇಕಮೂರ್ತಯೇ ನಮಃ, ಓಂ ಅವ್ಯಕ್ತಾಯ ನಮಃ, ಓಂ ಕಟಿಹಸ್ತಾಯ ನಮಃ, ಓಂ ವರಪ್ರದಾಯ ನಮಃ, ಓಂ ಅನೇಕಾತ್ಮನೇ ನಮಃ, ಓಂ ದೀನಬಂಧವೇ ನಮಃ, ಓಂ ಆರ್ತಲೋಕಾಭಯಪ್ರದಾಯ ನಮಃ, ಓಂ ಆಕಾಶರಾಜವರದಾಯ ನಮಃ, ಓಂ ಯೋಗಿ ಹೃತ್ಪದ್ಮಮಂದಿರಾಯ ನಮಃ, ಓಂ ದಾಮೋದರಾಯ ನಮಃ, ಓಂ ಜಗತ್ಪಾಲಾಯ ನಮಃ, ಓಂ ಪಾಪಜ್ಞಾಯ ನಮಃ, ಓಂ ಭಕ್ತವತ್ಸಲಾಯ ನಮಃ, ಓಂ ತ್ರಿವಿಕ್ರಮಾಯ ನಮಃ, ಓಂ ಶುಂಶುಮಾರಾಯ ನಮಃ, ಓಂ ಜಟಾಮಕುಟಶೋಭಿತಾಯ ನಮಃ, ಓಂ ಶಂಖಮಧ್ಯೋಲ್ಲಸನ್ಮಂಜುಕಿಂಕಿಣ್ಯಾಚ್ಛಕರಂಡಕಾಯ ನಮಃ, ಓಂ ನೀಲಮೇಘಸ್ಯಾಮತನವೇ ಬಿಲ್ವಪತ್ರಾರ್ಚನ ಪ್ರಿಯಾಯ ನಮಃ, ಓಂ ಜಗದ್ವ್ಯಾಪಿನೇ ನಮಃ, ಓಂ ಜಗತ್ಕರ್ತೃ ನಮಃ, ಓಂ ಜಗತ್ ಸಾಕ್ಷಿಣೇ ನಮಃ, ಓಂ ಜಗತ್ಪತಯೇ ನಮಃ, ಓಂ ಚಿಂತಿತಾರ್ಥಪ್ರದಾಯಕಾಯ ನಮಃ, ಓಂ ಜಿಷ್ಣವೇ ನಮಃ, ಓಂ ದಾಸಾರ್ಹಾಯ ನಮಃ, ಓಂ ದಸರೂಪವತೇ ನಮಃ, ಓಂ ದೇವಕೀನಂದನಾಯ ನಮಃ, ಓಂ ಶೌರ್ಯೇ ನಮಃ, ಓಂ ಭಯಗ್ರೀವಾಯ ನಮಃ, ಓಂ ಜನಾರ್ದನಾಯ ನಮಃ, ಓಂ ಕನ್ಯಾಶ್ರವಣತಾರೇಜ್ಯಾಯ ನಮಃ, ಓಂ ಪೀತಾಂಬರಧರಾಯ ನಮಃ, ಓಂ ಅನಘಾಯ ನಮಃ, ಓಂ ವನಮಾಲಿನೇ ನಮಃ, ಓಂ ಪದ್ಮನಾಭಾಯ ನಮಃ, ಓಂ ಮೃಗಯಾಸಕ್ತಮಾನಸಾಯ ನಮಃ, ಓಂ ಅಶ್ವಾರೂಢಾಯ ನಮಃ, ಓಂ ಖಡ್ಗಧಾರಿಣೇ ನಮಃ, ಓಂ ಧನಾರ್ಜನ ಸಮುತ್ಸುಕಾಯ ನಮಃ, ಓಂ ಧನಸಾರ ಲಸನ್ಮತ್ಸ್ಯ ಕಸ್ತೂರಿ ತಿಲಕೋಜ್ವಲಾಯ ನಮಃ, ಓಂ ಸಚ್ಚಿದಾನಂದ ರೂಪಾಯ ನಮಃ, ಓಂ ಜಗನ್ಮಂಗಳದಾಯಕಾಯ ನಮಃ, ಓಂ ಯಜ್ಞರೂಪಾಯ ನಮಃ, ಓಂ ಯಜ್ಞಭೋಕ್ತ್ರೇ ನಮಃ, ಓಂ ಚಿನ್ಮಯಾಯ ನಮಃ, ಓಂ ಪರಮೇಶ್ವರಾಯ ನಮಃ, ಓಂ ಪರಮಾರ್ಥಪ್ರದಾಯಕಾಯ ನಮಃ, ಓಂ ಪರಾತ್ಪರಾಯ ನಮಃ, ಓಂ ಶಾಂತಾಯ ನಮಃ, ಓಂ ಶ್ರೀಮತೇ ನಮಃ, ಓಂ ದೋರ್ದಂಡ ವಿಕ್ರಮಾಯ ನಮಃ, ಓಂ ಪರಬ್ರಹ್ಮಣೇ ನಮಃ, ಓಂ ಶ್ರೀ ವಿಭವೇ ನಮಃ, ಓಂ ಜಗದೀಶ್ವರಾಯ ನಮಃ, ಇತಿ ಶ್ರೀ ವೆಂಕಟೇಶ್ವರ ಅಷ್ಟೋತ್ತರ ಶತನಾಮಾವಳಿ. ಶ್ರೀಯಃ ಕಾಂತಾಯ ಕಲ್ಯಾಣ ನಿಧಯೇ ನಿಧಯೇಧಿನಾಂ ಶ್ರೀ ವೆಂಕಟ ನಿವಾಸಾಯ ಶ್ರೀನಿವಾಸಾಯ ಮಂಗಳಂ. ಲಕ್ಷ್ಮೀ ಸವಿಭ್ರಮಾಲೋಕ ಸುಭ್ರೂ ವಿಭ್ರಮ ಚಕ್ಷುಷೇ ಚಕ್ಷುಷೇ ಸರ್ವಲೋಕಾನಾಂ ವೆಂಕಟೇಶಾಯ ಮಂಗಳಂ. ಶ್ರೀ ವೆಂಕಟಾದ್ರಿ ಶೃಂಗಾಗ್ರ ಮಂಗಳಾಭರಣಾಂಗ್ರಯೇ ಮಂಗಳಾನಾಂ ನಿವಾಸಾಯ ಶ್ರೀನಿವಾಸಾಯ ಮಂಗಳಂ. ಸರ್ವಾವಯವ ಸೌಂದರ್ಯ ಸಂಪದಾ ಸರ್ವಚೇತಸಾಂ ಸದಾ ಸಂಮೋಹನಾಯಾಸ್ತು ವೆಂಕಟೇಶಾಯ ಮಂಗಳಂ. ನಿತ್ಯಾಯ ನಿರವಧ್ಯಾಯ ಸತ್ಯಾನಂದ ಚಿದಾತ್ಮನೇ ಸರ್ವಾಂತರಾತ್ಮನೇ ಶ್ರೀಮದ್ ವೆಂಕಟೇಶಾಯ ಮಂಗಳಂ. ಸ್ವತಃ ಸರ್ವವಿದೇ ಸರ್ವಶಕ್ತಯೇ ಸರ್ವಶೇಷಿಣೇ ಸುಲಭಾಯ ಸುಸೀರಾಯ ವೆಂಕಟೇಶಾಯ ಮಂಗಳಂ. ಪರಸ್ಮೈ ಬ್ರಹ್ಮಣೇ ಪೂರ್ಣಕಾಮಾಯ ಪರಮಾತ್ಮನೇ ಪ್ರಯುಂಜೇ ಪರತತ್ವಾಯ ವೆಂಕಟೇಶಾಯ ಮಂಗಳಂ. ಆಕಾಲತತ್ವಮಶ್ರಾಂತಮಾತ್ಮನಾಮನುಪಸ್ಯತಾಂ ಅತೃಪ್ತ್ಯಮೃತರೂಪಾಯ ವೆಂಕಟೇಶಾಯ ಮಂಗಳಂ. ಪ್ರಾಯಸ್ವಚರಣೋ ಪುಂಸಾಂ ಶರಣ್ಯತ್ವೇನ ಪಾಣಿನಾ ಕೃಪಯಾಧಿಕತೆ ಶ್ರೀಮದ್ವೆಂಕಟೇಶಾಯ ಮಂಗಳಂ. दयामृत तरंगिण्या तरंगैरिव शीतलैः अपांगैश्चिञ्चते विश्वं वेंकटेशाय मंगलम्। त्रिघोषाम्बरहेतीनां सुषमावाहमूर्तये सर्वार्थशमनायास्तु वेंकटेशाय मंगलम्। श्रीवैकुण्ठविरक्ताय स्वामी पुष्करिणीतटे रमया रममाणाय वेंकटेशाय मंगलम्। श्रीमत्सुन्दरजामातृमुनिमानसवासिने सर्वलोकनिवासाय श्रीनिवासाय मंगलम्। मंगलाशासनपरैर्मदाचार्यपुरोगमै सर्वैश्च पूर्वैराचार्यै सत्कृतायास्तु मंगलम्।